एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः कथयति लघुषु गार्हस्थेषु स्वल्पेषु च उद्योगेषु निवेशं वर्धयितुं सर्वकारः विशेष प्रयासं विदधाति। ह्य काष्ठमण्डपस्य भ्रिकुटी मण्डपे प्रारब्धाः एतद् विक्रम वर्षीया षोडशीम् अन्तर्राष्ट्रियोद्योगिक व्यापार मेलाम् गार्हस्थोद्योग महोत्सवम् षष्टिम् प्रांगारिक कृषि मेलाम् च उद्घाटयन् प्रधानमन्त्री प्रचण्डः अवदत् स्वल्प गार्हस्थोद्योगानां कृते सहजरूपेण ऋण प्राप्तये एवं विधैः उद्योगैः उत्पादितानां वस्तुनां प्रवर्धनाय च सर्वकारेण कतिचित् महत्वपूर्णा नीतिगत व्यवस्था विधीयमाना वर्तते। कतिचित् दशकेभ्यः पूर्वं नेपालेन कृष्युत्पादनानां खाद्यवस्तूनां च निर्यातो विहित आसीत् इति चर्चयन् प्रधानमन्त्री प्रचण्डः अवासत नेपाली वस्तूनां प्रयोगस्य माध्यमेन नेपालित्वभावनया गर्वः अनुभवनीयः कृष्याम् आदृतस्य उद्योगस्य निवेशनाय प्रोत्साहनं च प्रदातव्यम्। प्रधानमन्त्री प्रचण्डः सम्प्रति राष्ट्रं वित्तीय संकटस्य अवस्थाया संचलद अस्थिति हेतोः एतस्य निराकरणं सर्वकारस्य प्रथमं दायित्वं भवतीति अगदत। कार्यक्रमे महिला बाल बालिका ज्येष्ठ नागरिक मन्त्री भगवती चौधरी अवदत् नेपालस्य परम्परागत शिल्पस्य व्यवसायीकरणम् आवश्यकं वर्तते। नेपाल गारहस्थ स्वल्पोद्योग महासंघेन केन्द्रीय मैलोद्यमी समित्या च आयोजिते इमे मेला प्रदर्शनी च अस्यैव फाल्गुन मासस्य षष्ठम दिवसम यावत् संचालयितारौ। राष्ट्रिय सभायाः गतदिवसीयोपवेशे उपप्रधानार्थमन्त्री विष्णु प्रसाद पौडेलः वर्तमानाय विवरणस्य मध्यावधि समीक्षा प्रतिवेदनम् प्रास्तौत। प्रतिवेदनमिदम् प्रस्तुवन् अर्थमन्त्री पौडेलः आयव्यय विवरणस्य आकारस्य न्यूनीकरणं संसूच्य संचित धनपक्षे आयव्ययकस्य व्ययीकरणाय बलप्रदानस्य हेतोः विकास निर्माणयोः कार्याणि प्रभावितानि न भवन्तीति अतर्कयत। अर्थमन्त्री पौडेलः कृषि पर्यटनयोः सुधारो दृष्टा सन्नपि उत्पादनमूलक क्षेत्रेषु समस्यानां विद्यमानत्वात् अर्थतन्त्रे समस्याः सत्योऽपि एतत् समाह्वयस्य रूपेण अवलम्ब्य अग्रे वर्ध्यते इत्यभासत। उपवेशे सांसदाः आयव्ययकस्य न्यूनीकरणं परं निकटतायाः उपागमनस्य च आधारेण वित्त प्रदातृ प्रवृत्तिः निराकर्तव्या विकास निर्माणयोः कार्येषु तीव्रतां प्रदाय जनतायां परिवर्तनस्य अनुभावनत्वेन कार्याणि विधातव्यानि चेति विषयेषु बलं प्रादुः। उपवेशे सबल विकास सुशासन समितेः सभापतिः प्रकाश पन्थ समितेः वार्षिक प्रतिवेदनं प्रस्तोत एवमेव विधि न्याय संसदीय विषय मन्त्री ध्रुवबहादुर प्रधान मन्त्री परिषदा क्रियान्वितम् एकसप्तत्यधिक द्विसहस्रतम वैक्रमाब्दस्य विलोपितानां व्यक्तिनाम् अन्वेषण सत्यनिरूपण मेलायोगादि नियमस्य द्विचत्वारिंशत् प्रकरणे आदृतं बाधा व्यवधान निरा निवारणादेशं प्रास्तोत। राष्ट्रिय सभाया उपवेशेन पूर्व सांसदस्य कर्मा घले विदस्य निधने शोकम् अभिव्यज्य शोक प्रस्तावोऽपि पारितीकृतो वर्तते। राष्ट्रिय सभायाः अपरोपवेशः अस्यैव फाल्गुनस्य चतुर्दशे दिवसे दिवा एकवादने वस्ता। प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन सह दक्षिण कोरिया देशस्य राष्ट्रपतेः विशेष दूतेन सुङमिन जंग इत्यनेन सहितः अष्टानां जनानां समूह ह्य शिष्टाचार मेलवार्ताम् अकरोत। बालवाटार वर्तिनी प्रधानमन्त्री निवासे सम्पन्नायां तस्यां मेलवार्तायां देशद्वयस्य मध्ये पारस्परिक सम्बन्धस्य हिताभिरुच्योश्च विषयेष् विमृष्टमिति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितं वर्तते। तदवसरे द्विपक्षीय सम्बन्धस्य अतिरिक्त सुदृढीकरणस्य आर्थिक सहयोगस्य आदान प्रदानयश्च विषयेष् महत्वपूर्णं विमर्शनं सम्भूतम् आसीत। मेलवार्तायां वृत्त्युपार्जनानुमति प्रणाल्याः माध्यमेन इतोऽपि अधिकानां श्रमिकाणां कोरिया देशं नयन दक्षिण कोरिया देशात् नेपालाय प्राप्त सहयोगस्य वर्धापनस्य च विषयेष्वपि विमृष्टमासीत। आगामी वर्षे नेपाल दक्षिण कोरिया देशयोः सम्बन्धस्य प्रारम्भस्य 50 वर्षाणि प्राप्नुवन्ति इत्यतः अवसरममुं भव्यतया आयोजयितुं च विमृष्टमिति ज्ञापितं वर्तते। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली स्वस्य दलम समृद्ध देशस्य निर्माणाय प्रयासरतम स्थिति भाषते। अनेरा स्वब्यु नामनः अखिल नेपाल राष्ट्रिय स्वतन्त्र विद्यार्थी युनियन संगठनस्य त्रयोविंशम् महाधिवेशनम् ह्यः काष्ठमण्डपे सम्बोधयन् अध्यक्ष ओली पञ्चदलीय गठबन्धनम् सन्त्रोट्य वर्तमान सर्वकारस्य संगठनम् प्रसन्नतायाः विषयोऽस्ति परम् स्पष्ट बहुमतस्य अभावस्य विषयः अस्थिरतायाः कारकः सम्भवतीति भासमानः। समृद्ध समाजस्य निर्माणाय अस्य गठबन्धनस्य रक्षणार्थम् सच्चेष्टैर्भाव्यमिति बलम् प्रादात्। अध्यक्ष ओली दलम् आधारभूतस्तरे स्थापितं विधातुं जनस्तराभियानस्य माध्यमेन क्रियाशीलं भवितुं विचारकार्यायोः आत्मानं सबलं विधातुं च अनेरा स्वव्यु संगठनम् अन्वरुणात्। महाधिवेशने एमाले दलस्य महासचिवः शंकर पोखरेलः अवोचत् अनेरा स्वव्यु संगठनेन देशस्य वैचारिकेण अनुशिष्टेन सबल शक्तिशालिना च स्थातुम् आवश्यकमस्ति। नेकपा एकीकृत समाजवादिनः अध्यक्षस्य माधव कुमार नेपालस्य भारतीय विदेश सचिवस्य विनय मोहन क्वात्राभिधस्य च मध्ये मेलवार्ता सम्पन्ना वर्तते। कोटेश्वर वर्तिनी अध्यक्षस्य नेपालस्य निवासे ह्य सम्पन्ने मेलने देशद्वयस्य मध्ये विद्यमानस्य सम्बन्धस्य सबलीकरणस्य द्विपक्षीय हितस्य अभिरुच्यश्च विषयेष् वार्ता विहिता आसीत्। उप प्रधानवर्ज जलस्रोत सिंचन मन्त्रिणा राजेन्द्र लिङ्गदेन इत्यनेन सह नेपाल भ्रमणे विद्यमान भारतीय विदेश सचिव विनय मोहन क्वात्रा ह्य शिष्टाचार मेलनम् अकरोत्। राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्षस्य च ऊर्जो मन्त्रिणः लिङ्गदेन इत्यस्य भारतीय विदेश सचिवस्य क्वात्रा इत्यस्य च मध्ये सम्पन्ने तस्मिन् मेलने देशद्वयस्य सम्बन्धस्य द्विपक्षीय हित सहयोगानां च विषयेष् विमृष्टमिति उप प्रधानमन्त्रिणः लिङ्गदेन इत्यस्य सचिवालयेन ज्ञापितं वर्तते। उप प्रधान भौतिक पूर्वाधार यातायात मन्त्रिणा नारायणकाली श्रेष्ठेन सह नेपाल भ्रमणाय आगतो भारतीय विदेश सचिव विनय मोहन क्वात्रा ह्य अमिलत। मन्त्रालय सम्पन्नायां मेलवार्तायां उप प्रधान मन्त्रिणो श्रेष्ठ तेन मार्गस्य आर्थिक समृद्धेः नेपाल भारतयोर्मध्ये सम्पन्नानां सन्धि संविधानां भारतीय पक्षेण विहित निवेशनानां आयोजनानां च विषयेष् राजदूतेन क्वात्राभिधेन सह विमृष्टमिति मन्त्रालयो ज्ञापयति। भारतीय विदेश सचिव क्वात्रा भारतीय संस्थानेन विहितस्य जयनगर कुर्था रेलयान सञ्चालनस्य अवधेः नवीकरणस्य विषयम् उपस्थापयत्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा रेडियो नेपालम प्रविधि मैत्रीपूर्णम विधातुम बलम ददाति। दाङ जनपदस्य हेमन्तपुर स्थितस्य लुम्बिनी प्रादेशिक प्रसारण केन्द्रस्य अनुगमन निरीक्षणयो क्रमे यो मन्त्री शर्मा सूचनायाः प्रमुख माध्यमः रेडियो नेपालो स्थिति चर्चयन्ती अगदत। सूचना प्रविधेः विकासम ध्यात्वा रेडियो नेपालेन विकासो विधेय कार्यक्रमे रेडियो नेपालस्य कार्यकारी निर्देशकः बुद्धिबहादुर केसी अवोच रेडियो नेपालेन देशस्य सर्वेषु भूभागेषु प्रसारण केन्द्राणि प्रापयितुं प्रयत्यमानं वर्तते। असौ देशस्य सर्वासां वसतीनां भाषाभाषिणां च समाचारः कार्यक्रमाश्च प्रसार्यमाणाः सन्तीति चर्चयन् आगामि दिनेषु अतिरिक्त भाषाणां समाचाराणां कार्यक्रमाणां च सञ्चालनाय समितिः संघटिता स्थिति अज्ञापयत्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा नेपालगंज नगरे ह्य प्रारब्धाम हिमालय विज्ञान मेलाम उद्घाटयन्ती सूचना प्रविधेः विकासाय अतिरिक्त निवेशनस्य आवश्यकताम दर्शयन्ती सर्वकारेण प्रविधेः विकास सदुपयोग विस्ताराः प्राथमिकतायां समाविष्टाः सन्तीति समस्पष्टयत्। ह्यैव संचार सूचना प्रविधि मन्त्री शर्मा नेपाल टेलिभिजन संस्थानस्य कोल्हापुर प्रसारण केन्द्रम निरीक्षत। तदवसरे केन्द्रस्य प्रमुख विजय कुमार वर्मा केन्द्रस्य प्रगतेः समस्यानां च विषये मन्त्रिणम् अज्ञापयत्। मन्त्री शर्मा गतदिने एव कोल्हापुर स्थितस्य गोर्खापत्र निरीक्षणे व्यदधात्। तदवसरे असौ पश्चात्तन समये सामाजिक सञ्जालानां प्रयोगस्य वर्धनात् पाठक दर्शक श्रोतृणाम् अभिरुच्यनुकूला सामग्री उत्पादयितुं प्रसारयितुं प्रकाशयितुं च बलम् अदात् इति समाचारः।